सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज, अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः। सत्यं सत्यं पुनः सत्यम् उद्धृत्य भुजमुच्यते, वेदाशास्त्रं परं नास्ति न दैवं केशवात् परम्। शरीरे जर्झरी भूते व्याधिग्रस्ते कळेबरे, औषधं जाह्नवीतोऽयं वैद्यो नारायणो हरिः। आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः, इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात्।